सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः। भगिनी एकवारं स्मारयतु।
ॐ रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी से सुखकरी विद्या क्षम्यतां विद्या गुरुनां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः। हरि ओम्। श्रीगुरुभ्यो नमः।
धन्यवादाः भगिनी। अद्य नूतनपाठः आरभ्यते। नूतनपाठस्य शीर्षकमस्ति आत्मैव आत्मनो बन्धुः। अयं भागः गीताश्लोकात् उद्धृतः भागः, भगवद्गीतातः उद्धृतः भागः अयम्। षष्ठाध्यायस्य पञ्चमश्लोकात् उद्धृतः एषः भागः पाठस्य शीर्षकमस्ति। इत्युक्ते श्लोकात् स्वीकृतम् इदं वाक्यम् आत्मैव आत्मनो बन्धुः। भूमा भगिनी, भवती जानाति वा श्लोकं? जानाति वा?
न भगिनी, पृष्ठसङ्ख्या क्या? गीतासोपानपुस्तकस्य पृष्ठ
39-100 पुटं पश्यतु। नूतनः पाठः 139 पेज्, 39-100 अथवा 141-100, 149-100 पृष्ठं पश्यतु। तत्र श्लोकस्य भागः प्रदत्तः, षष्ठाध्यायस्य पञ्चमश्लोकात् उद्धृतः भागः। उद्धरेदात्मनात्मानम् आत्मानमवसादयेत्, आत्मैव हि आत्मनो बन्धुः, आत्मैव रिपुरात्मनः इति श्लोकः अस्ति तत्र। आत्मानम् आत्मना उद्धरेत्। सूर्यकुमारी भगिनी, इदं वाक्यं पश्यतु। आत्मानम् आत्मना उद्धरेत्, विभक्तिं वदतु। आत्मानं जानाति वा आत्मानम् इति?
द्वितीय एकवचनम्।
उत्तमम्। आत्मानं द्वितीया विभक्ति एकवचनमस्ति। आत्मानम् आत्मना उद्धरेत्, आत्मना इति तृतीया विभक्तिः अस्ति, उद्धरेत् विधिलिङ्गलकाररूपमस्ति। इदं वाक्यं श्लोके एव अस्ति, श्लोकस्य अन्वयं वदन्ती अस्मि। आत्मानम् आत्मना उद्धरेत्, आत्मानं न अवसादयेत्। आत्मा एव हि आत्मनः बन्धुः, आत्मा एव आत्मनः रिपुः। रमेश महोदय, भवान् जानाति वा इदं वाक्यं?
पठितवान्।
किञ्चित् वदतु।
तर्हि तत्र आत्मानम् आत्मना एव आत्मनस्य आत्मनः उद्धारं कर्तुं शक्यते इति दत्तमस्ति। तदेव तस्य, परन्तु आत्मनः असाधयत् न असाधयेत् इति अपि दत्तमस्ति।
अन्वयं वदन्ती अस्मि। प्रथमं वाक्यमस्ति आत्मानम् आत्मना उद्धरेत्। आत्मना इति कथनेन करणमस्ति खलु, कर्तृकरणयोः तृतीया इत्यनेन आत्मना उद्धरेत्। कम्? आत्मानम् उद्धरेत्, आत्मानं न अवसादयेत्। वदतु।
आत्मानं न अवसादयेत्, आत्मना आत्मानं न अवसादयेत् इति। तर्हि केवलम् उद्धारणम् एव करणीयं, तस्य आस्वादनं न करणीयम् इति तत्र उल्लेखः अस्ति।
अत्र आत्मा इति कथनेन मनः इति अर्थः खलु?
मनः यद् नयति यत्किमपि नयति तदेव तत्र आशयः अत्र
साधारणतया आत्मा इति कथनेन तत्र भिन्न अर्थः अस्ति किन्तु अस्मिन् श्लोके आत्मनः बन्धुः कः मनः एव आत्मनः रिपुः एव रिपुः इति कथनेन शत्रुः आत्मनः शत्रुः मनः एव इत्युक्ते मनसः नियन्त्रणम् आवश्यकम् इति अत्र उच्यते खलु वदतु
मन एव मनुष्याणां कारणं बन्धमोक्षयोः न
मन एव मनुष्याणां कारणं बन्धमोक्षयोः रमेश महोदय तत्र विभक्तीनां प्रसङ्गे वदतु तस्मिन् वाक्ये किमस्ति
एकवारं पुनः वदतु महोदय वाक्यं
मनः एव इत्यत्र विसर्गलोपः भवति मन एव मनुष्याणां कारणं बन्धमोक्षयोः
तत्र मनः इति प्रथमविभक्त्यामस्ति मनः एव अव्ययमस्ति एव कारणम् इति द्वितीयायाम् अस्ति
बन्धमोक्षयोः कारणम्
बन्धमोक्षयोः कारणं बन्धमोक्षयोः इति षष्ट्याम् अस्ति बन्धमोक्षयोः समस्तपदमस्ति द्वन्द्वसमासः बन्धश्च मोक्षश्च बन्धमोक्षये बन्धमोक्षौ
तयोः
बन्धमोक्षयोः बन्धमोक्षयोः कारणम् अस्ति इति वा क्रियापदं किमस्ति
बन्धमोक्षयोः कारणं किम् अस्ति मनः एव
मनः एव अस्ति
भूमा भगिनी सम्यक्
अत्र धन्यवादः
बन्धमोक्षयोः कारणं मनः एव बहु उत्तमं वाक्यम् अस्माकं शीर्षकमस्ति आत्मैव आत्मनो बन्धुः आत्मैव इत्यत्र सन्धिकार्यमस्ति सूर्यकुमारी भगिनी वदतु
आत्मयोगः एव वृद्धिसन्धिः आत्मैव
उत्तमं वृद्धिसन्धेः प्रसङ्गे सूत्रद्वयमस्ति एकमस्ति संज्ञासूत्रम् अन्यदस्ति विधिसूत्रम् एकवारं स्मारयतु सूत्रद्वयं
वृद्धिरेचि संज्ञासूत्रं
वृद्धिरेचि इति विधिसूत्रम्
वृद्धिरेचि
विधिसूत्रं विधिसूत्रम् इत्यनेन कार्यं भवति विधिः भवति किन्तु संज्ञासूत्रम् इत्युक्ते वृद्धिः इति एका संज्ञा वृद्धिः इति एका संज्ञा अस्ति तस्य कृते संज्ञासूत्रमस्ति वृद्धिरादि अपि च आत्मनो बन्धुः इति लिखितम् अस्ति पदविच्छेदं कुर्मः चेत् आत्मनः बन्धुः तत्र सन्धिकार्याणि सन्ति एकवारं वक्तुमिच्छति वा
पूर्वरूपसन्धि
तत्र पूर्वरूपसन्धिः नास्ति
आत्मनो आत्मनः विसर्गसन्धिः अतः परः असि अस्ति चेत् ओत्वं भवति
उत्तमं भाटसूत्रम् उक्तवती चतुर्थं भाटसूत्रम् उक्तवती अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम् इति सूत्रमस्ति अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम् अतिहसि इति लिखितमस्ति सूत्रे अत्र किं स्वीकर्तव्यं हसि इति एव स्वीकर्तव्यम् अस्ति अत्र हश् वर्णः अस्ति इत्युक्ते विसर्गात् परं बकारः हश् वर्णः अस्ति आत्मनः योगः बन्धुः आत्मनः इत्यत्र वदतु
क्षम्यतां
विसर्गात् परं
विसर्गात् परम् अश्वर्ण अस्ति चेत् उत्तमं भवति विसर्जस्य स्थाने उकारादेशः भवति
उत्तमं तथापि वक्तुं शक्यते भिन्नरीत्यापि वक्तुं शक्यते किमर्थं भवती एवम् उक्तवती इत्युक्ते भाटसूत्राणि पठामश्चेत् विसर्गसन्धिकार्याणि सौलभ्येन ज्ञातुं शक्नुमः तत्र सौलभ्यम् अस्ति भाटसूत्राणि पठामश्चेत् विसर्गसन्धिकार्याणि सौकर्येण ज्ञातुं शक्नुमः अतः तत् सूत्रं भवती उक्तवती अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम् इति सूत्रमस्ति किन्तु शास्त्रीयचिन्तनं भिन्नम् अस्ति इत्युक्ते तत् सूत्रम् अष्टाध्याय्यां नास्ति अष्टाध्यायीग्रन्थे अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम् इति सूत्रं न कदापि दृश्यते न कुत्रापि दृश्यते किन्तु तत्र एकं सूत्रमस्ति हसि च इति सूत्रमस्ति रमेश महोदय भवान् जानाति चेत् वदतु।
प्रथमं ससजुषो रुः इति सूत्रेण सकारस्य रुत्वं भवति, तत्पश्चात् हषि च इति सूत्रेण रेफस्य विसर्जनीयस्य स्थाने यत् रेफः आगच्छति रुत्वं, रुत्वस्य स्थाने उकारादेशः भवति।
बहु सम्यक्, तथापि वक्तुं शक्यते, शास्त्रीयचिन्तनं तु तदेव। प्रथमतया ससजुषोरुः इति सूत्रेण रुत्वं भवति, पश्चात् रु इत्यस्य स्थाने उकारादेशः भवति। अन्यत् कार्यमपि अस्ति, यदा उत्वं भवति तदा अत्र स्थितिः का, आत्मन योगः ऊ योगः बन्धुः इति स्थितिः अस्ति, तस्यां दशायां गुणसन्धिकार्यमपि भवति। आद्गुणः इति सूत्रेण गुणसन्धिकार्यं भूत्वा आत्मनो अकार उकारयोः द्वयोः स्थाने ओकारादेशः भवति। गुणसन्धेः प्रसङ्गे आद्गुणः इति विधिसूत्रमस्ति, अदेङ्गुणः इति संज्ञासूत्रमस्ति। गुणः नाम किम् इति प्रश्ने सति, गुणः इति एका संज्ञा अस्ति संस्कृतभाषायां। गुणसन्धेः प्रसङ्गे गुणसंज्ञासूत्रमस्ति, अदेङ्गुणः इति संज्ञासूत्रमस्ति, आद्गुणः इति विधिसूत्रमस्ति। अत्र गुणसन्धिकार्यमपि भवति, अतः एव आत्मनो बन्धुः इति लिखितमस्ति। आदौ विसर्गसन्धिकार्यं पश्चात् गुणसन्धिकार्यमपि अस्ति। शीर्षकम् आत्मैव आत्मनो बन्धुः, आत्मा एव आत्मनः रिपुः। अत्र यद्यपि आत्मा इति पदं लिखितमस्ति, तथापि अत्र आत्मा इति शब्दस्य अर्थः तु मनः इति एव स्वीकर्तव्यम्। बन्धुः इति उकारान्तपदम्, किन्तु बान्धवः इति अन्यत् पदमस्ति, बान्धव इति अकारान्तप्रातिपदिकम्। सूर्यकुमारी भगिनी, बन्धुशब्दस्य रूपाणि द्वितीयापर्यन्तं वदतु।
बन्धुः बन्धौ, क्षम्यतां, बन्धुः गुरुः,
गुरुः गुरु गुरवः,
बन्धु बन्धवः।
पुनः वदतु।
बन्धुः बन्धु बन्धवः, तदेव भगिनि।
उत्तमं, बन्धुः बन्धु बन्धवः, गुरुः गुरु गुरवः, बन्धवः भिन्नं, बान्धवः भिन्नमस्ति, तत्र भेदः अस्ति। बन्धवः इति बन्धुशब्दस्य प्रथमाविभक्ति बहुवचनमस्ति, किन्तु बान्धवशब्दः भिन्नः खलु। मया किं दृष्टम् इत्युक्ते, बन्धुः इत्यनेन किमुच्यते इत्युक्ते स्नेहेन बध्नाति इति लिखितम् अस्ति। बन्धुशब्दस्य प्रसङ्गे ज्ञातिः दायादः इत्यादीनि पदानि दत्तानि, किन्तु तेषाम् अर्थः भिन्नः इति मम अवगमनम्। ज्ञातिः इति भिन्नं पदं, दायादः भिन्नं पदम् अस्ति। ते सर्वे अपि बान्धवाः एव, किन्तु तत्र अर्थभेदः अस्ति इति मम अवगमनमस्ति। अस्तु, अग्रे सरेम। अत्र एतानि वाक्यानि उच्चारयत इति लिखितमस्ति। सूर्यकुमारी भगिनी आरम्भं करोतु।
एतानि वाक्यानि उच्चारयत, एतानि प्रथमाविभक्ति बहुवचनं।
किमर्थं प्रथमाविभक्ति?
वाक्यानि द्वितीय अस्ति, एता क्षम्यतां, विशेषविशेषणमस्ति। उच्चारयत किमर्थम् एतानि नपुंसकलिङ्गमस्ति चेत्?
इतोपि स्पष्टतया वदतु। वाक्यं वाक्ये वाक्यानि इति नपुंसकलिङ्गपदमस्ति, किन्तु अत्र विभक्तिः का?
ओ, द्वितीय बहुवचनं, क्षम्यताम्।
किमर्थं द्वितीय बहुवचनं?
कर्मपदम् उच्चारयत क्रियापदं मध्यमपुरुष बहुवचनं, लोट्लकारः कर्मपदम्।
कर्मपदमस्ति, उच्चारयत इत्यस्य प्रसङ्गे भवती उक्तवती लोट्लकारः मध्यमपुरुष बहुवचनरूपं। तत्र रूपं दृष्ट्वा भवती किम् अवगन्तुं शक्नोति? उच्चारयति अथवा उच्चारयत इति कथनेन तत्र रूपं निजन्तं वा अनिजन्तं वा?
निजन्तम्।
तत्र किं किम् अस्ति इतोपि दृष्ट्वा वदतु।
उत्तुपसर्गः,
चरधातुः,
चरधातुः निच् प्रत्यययोगेन चारि भवति, चारि योगः लट्लकारस्य तिनन्त प्रत्ययः।
अत्र णिच् अस्ति इति अवगन्तुं शक्यते खलु?
आम्, चारि अस्ति चेत्, दीर्घ अस्ति चेत् णिच् अस्ति।
रमेश् महोदय, भवान् वदतु, उच्चारयत इत्यत्र सन्धिकार्यमस्ति, अपि च णिच् अस्ति, इतोपि भवान् यज्जानति तद्वदतु।
उच्चारयत तत्र उत् इति उपसर्गः अस्ति, चर् इति धातुः अस्ति, निजन्तन् योजनेन उपादायाः दीर्घः भवति, चार् अतोपदायाः इति सूत्रेण दीर्घः भवति, चार् इति भवति, इकारयोजनेन चारि इति धातु सिद्ध्यति।
अत्र चर् धातुः, चर् धातोः प्रसङ्गे उपधायां ह्रस्वकारः अस्ति इति कारणतः अतो उपधायाः इति सूत्रेण अकारस्य वृद्धिः भूत्वा आकारः भवति, अतः चर् इत्यस्य रूपं चार् भवति, चार् योगः इ चारि, पश्चात् चारयत इति रूपं सिद्ध्यति। अत्र उत्योगः चारयति, तत्र सन्धिकार्यं वदतु।
उत्योगः चार्, उद्योगः चर्, तत्र स्तोष्टुनश्चुः इति सूत्रेण तकारस्य प्रथमम् उत् तस्य जलाङ्गश्वान्ते इति उद् भवति, तत्पश्चात् स्तोष्टुनश्चुः इति दकारस्य स्थाने जकारः आगमिष्यति, तत्पश्चात् करीच इति सूत्रेण जकारस्य स्थाने चकारः आगच्छति।
उत्तमं, तत्र त्रीणि सोपानानि सन्ति। चर् धातुः भुवादिगणे अस्ति, भुवादिगणे चर् धातुः गत्यर्थकधातुः, गत्यर्थकधातुः अस्ति इति कारणतः चरति इति रूपम् अस्ति। आ उपसर्गपूर्वकः अस्ति चेत् आचरति, सम उपसर्गपूर्वकः अस्ति चेत् सञ्चरति इत्यादीनि रूपाणि वयं द्रष्टुं शक्नुमः। चर् धातुः चुरादिगणे अपि अस्ति चेत् चुरादिगणे स्वार्थिकणिच् विधीयते, किन्तु भुवादिगणे हेतुमति च सूत्रेण प्रेरणार्थकणिच् विधीयते इति। भुवादिगणीयचरधातुं स्वीकुर्मः चेत् हेतुमति च सूत्रेण प्रेरणार्थकणिच् विधीयते, तेन चारि इति नूतनधातोः रूपं, किन्तु चुरादिगणीयचरधातोः रूपं स्वीकुर्मः चेत् स्वार्थिकणिच् योजनेन अपि चारि इति नूतनधातोः रूपं सिद्ध्यति, किन्तु द्वयोर्मध्ये अर्थभेदः अस्ति। भुवादिगणीयचरधातुः तु गत्यर्थकधातुः, चुरादिगणीयचरधातुः भिन्नार्थे अस्ति। विचारयति, उच्चारयति इति रूपाणि द्रष्टुं शक्नुमः। उच्चारणम् इति महाप्राणरूपं केचन जनाः वदन्ति, तत्तु दोषाय। किं वक्तव्यम्? उच्चारयत, तावदेव। उच्चारणं तावदेव, तत्र महाप्राण छकारः मास्तु, तादृशप्रयोगः नास्ति। आवरणे कानिचन पदानि दत्तानि, च अपि एव इति यत्, आदौ च प्रसङ्गे लिखितम् अस्ति। चकारस्य प्रयोगः कथं क्रियते? रमेश् महोदय, भवान् जानाति चेत् किञ्चित् वदतु।
चकारः समुच्चार्थे वक्तुं शक्यते, द्वौ यत्र द्वौ कर्ता वा कर्ता एकमेव क्रिया कुर्वन्ति चेत् तत्र चकार योजयितुं शक्यते। रामः लक्ष्मणः च गच्छतः इति
वाक्यद्वयं वदामि, एकवारं शृणोतु। रामः गच्छति, कृष्णः गच्छति, एतद् वाक्यद्वयं मिलित्वा चकारस्य प्रयोगं कृत्वा कथम् उच्यते? रामः गच्छति, कृष्णः गच्छति, द्वयोः वाक्ययोः मेलनं कृत्वा वक्तव्यम्।
रामः कृष्णः च गच्छति इति वक्तुं शक्यते, रामः कृष्णः च गच्छतः अपि वक्तुं शक्यते इति मम चिन्तनमस्ति।
बहु सम्यक्, उभयधा अपि वक्तुं शक्यते, उभयधा अपि साधुत्वं वर्तते, रामः कृष्णः च गच्छति तथा वक्तव्यं चेत् तत्र किं चिन्तनमस्ति?
तत्र क्रियायाः अन्वयः द्वयोः
स्वातन्त्र्येण
अन्वयति इति वक्तव्यं, रामः गच्छति कृष्णः अपि गच्छति इति अर्थं भवति तत्र।
उत्तमं, रामः कृष्णः च गच्छति इति वाक्यं साधु, तत्र चिन्तनं किमस्ति? तस्मिन् वाक्ये चकारस्य प्रयोगः स्वातन्त्र्येण अन्वयं प्राप्नोति, इत्युक्ते चकारस्य प्रयोगः स्वातन्त्र्येण अपि अन्वयं प्राप्नोति। रामः कृष्णः च गच्छति इत्यस्मिन् वाक्ये चकारस्य प्रयोगः स्वातन्त्र्येण अन्वयं प्राप्नोति, रामः गच्छति कृष्णः गच्छति। किन्तु भिन्नरीत्या तदेव वक्तुमिच्छामश्चेत् रामः कृष्णः च गच्छतः इत्युक्ते क्रियापदं द्विवचने अस्ति, तत्र किं वक्तव्यम्?
तत्र द्वौ तदेव क्रिया कुर्वन्तः इति वक्तव्यम्।
रामः कृष्णः च गच्छतः इत्यत्र चकारस्य अन्वयः साकल्येन भवति, साकल्यम् इति तद्धितान्तं पदं, तत्र विग्रहवाक्यं किं भवति?
सकलस्य भावः साकल्यम्।
रामः कृष्णः च गच्छतः इत्यत्र चकारस्य अन्वयः साकल्येन भवति, साकल्यम् इति तद्धितान्तं पदमस्ति, सकलस्य भावः साकल्यम्। स्वातन्त्र्येण भवति इत्यत्र स्वातन्त्र्यम् इति पदमस्ति। सुन्दरमहोदय वदतु विग्रहवाक्यम्।
तदेव स्वतन्त्रस्य भावः स्वातन्त्र्यम्।
औचित्यं वदतु।
उचितस्य भावः, उचितस्य भावः औचित्यम्।
उत्तमम्, इमानि पदानि तद्धितान्तपदानि, उचितस्य भावः औचित्यम्, सकलस्य भावः साकल्यं, स्वतन्त्रस्य भावः स्वातन्त्र्यम्। आहत्यत्र वार्ता का, रामः कृष्णः च गच्छतः इत्यपि साधु भवति, तत्र चकारस्य अन्वयः साकल्येन भवति। एकः अन्यः विषयः अस्ति, चकारस्य प्रयोगः कुत्र करणीयः, चकारः कुत्र प्रयोक्तव्यः इत्युक्ते तस्मिन् वाक्ये बहवः शब्दाः सन्ति चेत्, बहूनि पदानि तस्मिन् वाक्ये सन्ति चेत् चकारः कुत्र प्रयोक्तव्यः इति प्रश्नः उदेति। चकारस्य प्रयोगः सर्वदा अन्वयाकाङ्क्षिणां सर्वेषां पदानाम् उच्चारणस्य अनन्तरमेव अन्ते एव चकारस्य प्रयोगः करणीयः, चकारस्य प्रयोगः अन्ते एव भवति, तथा वदामश्चेदेव तत्र औचित्यम् अस्ति, चकारस्य प्रयोगः अन्ते एव औचित्यम् आवहति। किन्तु अस्माकं पुस्तके कानिचन वाक्यानि दत्तानि, तेषु वाक्येषु साकल्येन चकारस्य अन्वयः कृतः दृश्यते। तत्र इदानीं पुस्तकं पश्यामः, पुस्तके द्विधा न लिख्यते, पुस्तके केवलम् एकरीत्या एव उदाहरणानि दत्तानि। अस्माकं पुस्तके उदाहरणवाक्येषु साकल्येन चकारस्य अन्वयः कृतः दृश्यते। पुस्तकात् उदाहरणानि पश्येम। सूरिकुमारी भगिनी पठतु।
कुन्त्याः पुत्राः युधिष्ठिरः भीमः अर्जुनः च सन्ति, चकारः अन्ते अस्ति, सन्ति बहुवचनमस्ति, पुत्राः युधिष्ठिरः भीमः अर्जुनः च सन्ति। क्रियापदस्य अन्वयः साकल्यमस्ति वा?
साकल्येन चकारस्य अन्वयः भवति अत्र। कुन्त्याः पुत्राः इति लिखितमस्ति, विभक्तिः का?
षष्ठी एकवचनं।
कुन्त्याः कति पुत्राः सन्ति?
पञ्च। त्रयः
उत्तमम्। युधिष्ठिरः भीमः अर्जुनः च सन्ति। युधिष्ठिरः इति प्रसङ्गे रमेश महोदय किञ्चित् वदतु।
युधिष्ठिरः भवती पूर्वमेव उक्तवती, अहं विस्मृतवान् महोदय। युद्धे स्थिरः इति युधिष्ठिरः वा?
युद्ध इति पदमस्ति खलु, धकारान्तपदमस्ति खलु, हलन्तशब्दः अस्ति खलु। युद्ध इति हलन्तशब्दस्य सप्तमी रूपं किमस्ति?
युधि एव भवति।
अत्र विभक्तिलोपः न कृतः खलु?
विभक्तिलोपः न कृतः।
अनेन किमुच्यते? अलुक् समासः खलु।
अलुक् समासः।
सुन्दर महोदय भवान् वदतु।
अलुक् समासः वने चरः इति, वनं चरति वने चरः इति, तदपि अलुक् समासः। युद्धि स्थिरः इति सप्तमी तत्पुरुषः, तदेव किल सप्तमी तत्पुरुषः, तत्पुरुषसमासः, तदपि अलुक् समासः। अन्यत् कोऽपि उदाहरणं?
मम आशयः कः इत्युक्ते, अलुक् समासः अस्ति इति एकः विषयः, सप्तमी विभक्तेः लोपः न कृतः, सामान्यतया पूर्वपदस्य विभक्तिलोपः भवति समस्तपदेषु, किन्तु अत्र नास्ति इत्यतः अलुक् समासः। अत्र चिन्तनं किमस्ति, युधियोगः स्थिरः, स्था धातोः रूपं स्थिरः, दन्त्यसकाररूपं पूर्वमस्ति, गवियुधिभ्यां स्थिरः इति सूत्रेण, विशिष्टसूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आगतः, अतः युधिष्ठिरः इति रूपं सिध्यति। द्वितीयं वाक्यं सुजाता भगिनी भवती वदतु।
सत्वं रजः तमः च इति त्रयः गुणाः। शाकल्यस्य चकारः शाकल्यस्य इच्छनेन प्रयुक्तः भवति।
शाकल्यस्य भिन्नं साकल्येन भिन्नं खलु?
किं वदनीयं भगिनि?
साकल्येन, सकलं जानाति खलु, सकलम् इति पदात् साकल्यम् इति रूपं साधितम्। अत्र त्रीणि पदानि दत्तानि, सत्वं रजः तमः। विभक्तिः का, लिङ्गं किम्?
सत्वं सत्वं नपुंसकलिङ्गमस्ति वा?
सत्वम् इत्यत्र तकारद्वयमस्ति, तकारद्वयं लेखनीयं। सतः भावः त्वा इति प्रत्ययः अस्ति इति मम अवगमनं। सतः भावः सत्वं, श्रुतवती वा सत्ता इति पदम्?
आम् आं भगिनि।
सत्ता इत्यत्र सत्योगः तल् प्रत्ययः अस्ति चेत् सत्ता, सत्ता इति परिचितं पदमेव। सतः भावः इति कथनेन सत्वं सत्ता इति अपि भवति। सत्ता इत्युक्ते विद्यमानता इति अस्ति। रजः तत्र प्रातिपदिकं किम्?
रजस् प्रातिपदिकम् अस्ति।
लिङ्गं?
रज पुंलिङ्गं,
पुंलिङ्गं नपुंसकलिङ्गं। तत्र रूपाणि वदतु द्वितीयपर्यन्तं।
रजस् रजसौ रजसः पुंसकलिङ्गमस्ति वा? रजसं।
रूपाणि पुनः वदतु।
रजः रजसि रजांसि, रजः रजसि रजांसि, रजसा रजोभ्यां रजोभिः, रजसे रजोभ्यां रजोभ्यः, रजसः रजोभ्यां रजोभ्यः, रजसः रजसोः रजसां, रजसि रजसो रजसोः रजस्सु इति।
रजसि इति कथनेन सप्तमी एकवचनरूपमस्ति, सकारान्तमस्ति। रजः रजः रजसा रजसे रजसः रजसः रजसि, एवं सप्तसु विभक्तिषु एकवचनरूपाणि भवन्ति। महोदय भवानेव वदतु, तमः प्रातिपदिकं किं, द्वितीयपर्यन्तं रूपाणि कानि?
प्रातिपदिकं तमस् सकारान्तप्रातिपदिकं, तमः तमसि तमांसि, तमः तमसि तमांसि, तमसा तमसे तमसः तमसः तमसि इति एकवचनरूपाणि।
उत्तमं। दन्त्यसकारान्तप्रातिपदिकमस्ति तमस् रजस् इत्यत्र, एवं रूपाणि भवन्ति। सत्त्वम् इति गुणविशेषः, रजः इत्यपि गुणविशेषः. सत्त्वम् इत्यत्र त्व इति प्रत्ययः अस्ति इति मम अवगमनमस्ति. अग्रिमं वाक्यं भवती एव पठतु.
जगत् स्वप्नः सुषुप्तिः च इति तिस्रः अवस्था सन्ति.
पुनः वाक्यं वदतु.
जगत् जाग्रत्.
जगत्तु जाग्रत्, भेदः अस्ति खलु?
अस्ति मम भगिनि.
जगत् शब्दस्य रूपाणि वदतु.
जगत् जगतौ जगतः.
न
नपुंसकलिङ्गमस्ति. जगत् जग जग.
सुन्दरमहोदय वदतु.
जगत् जगति जगन्ति. जगत् जगति जगन्ति.
सप्तमी विभक्ति एकवचनरूपं जगति, तकारान्तशब्दः अस्ति. अत्र किं लिखितं? जाग्रत् स्वप्नः सुषुप्तिः च इति तिस्रः अवस्थाः सन्ति. अत्र किमर्थं तिस्रः?
तिस्रः त्रयः. सुषुप्तिः स्त्रीलिङ्गमस्ति.
किं स्त्रीलिङ्गमस्ति?
सुषुप्तिः तिङ् प्रत्ययं न भवति वा? न जानामि भगिनि.
पुंलिङ्गपदमस्ति चेत् किं रूपं वक्तव्यम्? नपुंसकलिङ्गमस्ति चेत् किं रूपं वक्तव्यम्?
त्रीणि अवस्थानि.
न न अवस्था इति आकारान्तस्त्रीलिङ्गपदमेव. अव उपसर्गपूर्वक स्था धातोः रूपम् अवस्था इति स्त्रीलिङ्गरूपम्. अतः एव तिस्रः अवस्थाः इति लिखितमस्ति. तस्मिन् स्थाने पर्यायवाचकपदम् अन्यत् पदमस्ति चेत्, पुंलिङ्गपदमस्ति चेत् त्रयः इति वक्तव्यं, नपुंसकलिङ्गपदमस्ति चेत् त्रीणि. भवती जानाति खलु?
आं भगिनि.
सुन्दरमहोदय भवान् वदतु. सत्त्वे तिष्ठति. सत्त्वे तिष्ठति इति
प्रश्नः किम्?
कण्ठे तिष्ठति.
कण्ठे तिष्ठति कण्ठस्थः.
गृहे तिष्ठति
गृहस्थः.
सत्त्वे तिष्ठति
सत्त्वस्थः.
उत्तमम्. जाग्रत् स्वप्नः सुषुप्तिः इति पदं लिखितमस्ति. सुषुप्तिः इति पदं कीदृशं पदम्?
सुष्टु सुप्ति.
रमेश महोदय कृपया वदतु.
श्रियां तिन् इति पदमस्ति. श्रियां तिन् पदमस्ति. सु उपसर्गः सुप् धातुः. तिन्
क्तिन् प्रत्ययान्तरूपं. मतिशब्दवत् क्तिन् प्रत्ययान्तरूपम् अस्ति.
सुप् इति धातुः.
सुप् इति धातुः इति उक्तवान्. तत्र धातुः तु सुप् नास्ति.
स्वप् अस्ति. स्वप्
स्वप् अस्ति. किन्तु सुप् किमर्थं भवति?
सम्प्रसारणं भूत्वा सुप् भवति.
उत्तमं. वचिस्वपि यजादीनां खिति इति सूत्रेण सम्प्रसारणकार्यं भूत्वा वकारस्य स्थाने उकारः आगतः. स्वप् इति धातोः रूपं. स्वप् धातुतः सुप्तिः इति रूपं भवति. क्तिन् रूपमस्ति चेत् सुप्तिः. क्तान्तरूपमस्ति चेत् किं भवति रमेश महोदय? क्तान्तरूपं
सुप्तः.
उत्तमं. क्तवत् रूपं?
सुप्तवान्.
उत्तमं. क्त्वान्तरूपं?
सुप्त्वा एव.
उत्तमं. किमर्थं पृष्टवती इत्युक्ते एते प्रत्ययाः कित् प्रत्ययाः. वचिस्वपि यजादीनां किति इति सूत्रेण सम्प्रसारणकार्यम् एतेषु प्रत्ययेषु परेषु भवति. तदर्थमेव क्तिन् प्रत्ययान्तरूपं सुप्तिः, क्तान्तरूपं सुप्तः, क्तवत् रूपं सुप्तवान्, क्त्वान्तरूपं सुप्त्वा. तत्र सम्प्रसारणकार्यम् अस्ति. किन्तु अत्र सु उपसर्गपूर्वक सुप्तिः विशिष्टसूत्रेण मूर्धन्यषकारः आगतः. शुभदा भगिनी भवती जानाति चेत् वदतु, अत्र केन सूत्रेण मूर्धन्यषकारः आगतः?
सुषुप्तिः इति सु इति उकारः अस्ति. अपि च सुप्तिः आदेशप्रत्यययोः इत्यनेन भवति, परन्तु अत्र प्रत्ययस्य सकारः नास्ति. इति सुप् इति धातोः षकारः अस्ति वा मूर्धन्यषकारः? हा हा, ईश्वप इति मूर्धन्य क्षम्यताम्, उपदेशावस्थायां तस्य रूपं ईश्वप इति भवति, तत्र मूर्धन्यषकारः अस्ति, तस्य धात्वादेशः सः इत्यनेन सकारादेशः भवति, अतः सुप् इत्यस्य सकारः तु आदेशरूपेण सकारः इति भवितुमर्हति, अतः तत्र आदेशप्रत्यययोः इत्यस्य प्रसङ्गः भूत्वा सुषुप्ति अत्र सु सकारोत्तरवर्तीयः उकारः अस्ति, इण् प्रत्याहारस्थवर्णः, तदनन्तरं सुप्तिः इत्यस्य सकारः आदेशस्य सकारः आदेशस्य अवयवः अवयवः सकारः, अतः आदेशप्रत्यययोः इत्यस्य कार्यं भूत्वा तत्र सुप्तिः इत्यस्य सकारस्य मूर्धन्यषकारः भवति, अतः सुषुप्तिः इति भवति इति मम चिन्तनम्।
आदेशप्रत्ययोः इति बहु परिचितं सूत्रमेव, षत्वप्रकरणे बहूनि अन्यानि सूत्राणि अपि सन्ति चिन्तनीयं। जाग्रत् इति पदमस्ति, शत्रन्तरूपं तथा भवितुं शक्नोति, अवधानयुक्तः अप्रमत्तः इति वक्तुं शक्यते। सुन्दरमहोदय भवान् वदतु, अप्रमत्तः इत्यत्र किम् अस्ति?
प्रमादे न भवति इति अप्रमत्तः इति कथितुं शक्यते। प्रमादे इत्युक्ते भ्रमः,
नैसमासः अस्ति इति ज्ञातुं शक्यते खलु, अप्रमत्तः इत्यत्र नैसमासः अस्ति, न प्रमत्तः अप्रमत्तः। अत्र प्रा उपसर्गपूर्वकः मद् धातुतः क्ताप्रत्ययान्तरूपमस्ति प्रमत्तः। प्रमत्तः इति कथनेन तस्मिन् अवधानं नास्ति, अवधानयुक्तः नास्ति इति अर्थः प्रमत्तः इति कथनेन, किन्तु अप्रमत्तः, अप्रमत्तः इत्युक्ते जाग्रदावस्था, जाग्रदावस्था, स्वप्नावस्था, सुषुप्त्यवस्था इति अवस्थात्रयमस्ति। अग्रिमं वाक्यं सुजाता भगिनी भवती एव पठतु।
भगवद्गीता ब्रह्मसूत्रम् उपनिषदः च प्रस्थानत्रयी, भगवद्गीता ब्रह्मसूत्रम् उपनिषदः च प्रस्थानत्रयी।
भगवद्गीता इति समस्तपदं दत्तमस्ति, समासः कः जानाति चेत् वदतु।
भगवतस्य गीता षष्ठी तत्पुरुषः
न, सुन्दरमहोदय भवान् वदतु।
भगवतः गीता, भगवद्गीता,
भगवतः गीता इति असाधु,
भगवता गीता,
भगवता गीता इति एव साधु। तृतीया तत्पुरुषसमासः अस्ति। उपनिषद् उपनिषदः इति रूपं दृष्ट्वा सुजाता भगिनी भवती वदतु, लिङ्गं किमस्ति, द्वितीयाविभक्तिपर्यन्तं रूपाणि वदतु।
उपनिषदः, उपनिषत्, उपनिषदौ, उपनिषदः, उपनिषदम्, उपनिषदौ, उपनिषदः।
पुनः एकवारम्।
उपनिषदः, उपनिषदौ, उपनिषदः, उपनिषत्, उपनिषदौ, उपनिषदः, उपनिषत्तम्, उपनिषदौ, उपनिषदः।
उपनिषद् इति दकारान्तपदं, दकारान्तशब्दः एव, उपनिषद् उपनिषदौ उपनिषदः स्त्रीलिङ्गपदमस्ति, सरित् सरितौ सरितः, सरितं सरितौ सरितः, एवं स्त्रीलिङ्गरूपाणि वक्तव्यानि, एवमेव अत्रापि रूपाणि भवन्ति। उपनिषद् इति पदस्य प्रसङ्गे शुभदा भगिनी भवती यद् जानाति तद्वदतु।
अहं न जानामि भगिनी।
अत्र उपसर्गद्वयमस्ति खलु?
आमाम्, उपयोगः नियोगः सद् धातुः वा, तस्य उपनिष
क्विप् इति प्रत्ययः
क्विप् हा क्विप् प्रत्ययः अस्तु क्विप् प्रत्ययः सर्वापहारी प्रत्ययः
क्विप् प्रसङ्गे किञ्चित् वदतु
धातोः यदा क्विप् प्रत्ययः विहितः भवति तदा क्विप् इत्यस्य सर्वापहारी लोपः भवति नाम क्विप् इत्यस्मात् ककारस्य लशक्वतद्धिते इत्यनेन इत्संज्ञा भवति पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति द्वयोः तस्य लोपः इत्यनेन लोपः भवति वि इति अवशिष्यते वि इत्यस्मात् इकारः अनुनासिकः अस्ति इति कृत्वा तस्य उपदेशे जनुनासिक इत् इत्यनेन
इकारः उच्चारणार्थः किन्तु तस्य लोपः भवति
वकारः अवशिष्यते तत्र इकारः उच्चारणार्थः इति कृत्वा वि इति स्वीकर्तव्यं चेत् स्वीकुर्मः चेत् वेरपृक्तस्य इत्यनेन तस्य अपि वेः अपृक्तस्य क्षम्यताम् इकारस्य लोपः अपि भवति वेः कथं भवति वि इत्यस्य षष्ठी एकवचनं परन्तु वि इति स्वीकुर्मः चेत् तत्र अपृक्त न भवति अस्तु तर्हि वि इत्यस्मात् इकारस्य उच्चारणार्थः अस्ति इति कृत्वा तस्य लोपः वकारः एकाल् प्रत्ययः अपृक्त एकाल् प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा भवति तदनन्तरं वेरपृक्तस्य इत्यनेन तस्य अपि लोपः भवति अतः सर्वापहारी लोपः भवति किमपि न तिष्ठति परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तस्य लक्षणं तु तिष्ठति एव अतः यदा धातोः विहितः भवति तथा तस्य प्रातिपदिकं प्रातिपदिकरूपेण तस्य परिवर्तनं भवति परन्तु तस्य धातुत्वं तु न जहाति कारिका अस्ति क्विब् विड् विजन्ताः धातुत्वं न जहाति इति यद्यपि तस्य प्रातिपदिकं भवति तत्र धातुत्वमपि अस्ति तस्मिन् इति अर्थः
अन्ततो गत्वा प्रातिपदिकं भवति चेदपि धातुत्वम् अस्ति धातुत्वं न जहाति लौकिकधातुः सद् अस्ति किन्तु अयं धातुः मूर्धन्यशकारादि धातुः एतादृशानि कार्याणि भवन्ति क्विप् प्रत्यये परे बहु सम्यक् धन्यवादाः भगिनि सद् धातुः अस्ति उप उपसर्गपूर्वक नि उपसर्गपूर्वक सद् धातुतः क्विप् इति प्रत्ययस्य योजनेन उपनिषद् इति रूपं सिद्ध्यति क्विप् इति प्रत्यये पकारः हलन्त्यमित्यनेन इति संज्ञकः भूत्वा अपगच्छति आदिमककारः लशक्वतद्धिते इत्यनेन इति संज्ञकः भूत्वा अपगच्छति इकारः उच्चारणार्थः किन्तु तस्य लोपः अपि भवति अन्ततो गत्वा वकारः एव तत्र अवशिष्यते किन्तु तस्यापि अपृक्तसंज्ञा भवति अपृक्त एकाल् प्रत्ययः एकं संज्ञासूत्रमस्ति तेन सूत्रेण सः वकारः अपृक्तसंज्ञकः भवति सद् धातोः परम् अपृक्तसंज्ञकवकारः अस्ति इति कारणतः वेरपृक्तस्य इति सूत्रेण वकारस्य लोपः अपि भवति क्विप् प्रत्यये सर्वापहारलोपः भवति किमपि तत्र न अवशिष्यते क्विप् प्रत्यये किमपि न अवशिष्यते इदानीम् उपनिषद् इत्यस्य प्रातिपदिकसंज्ञा भवति यद्यपि प्रत्ययस्य भागः किमपि नास्ति तथापि अस्य शब्दस्य प्रातिपदिकत्वं सिद्ध्यति
तत्र वार्तिकमस्ति क्विप् विड् विजन्ताः धातुत्वं न जहाति नाम तत्र क्विप् क्विप् क्विड् क्विच् एते त्रयः प्रत्ययाः यदा ते धातोः परं तस्य प्रयोगः भवति तदा तस्य प्रातिपदिकरूपेण तस्य रूपं परिवर्तनं भवति परन्तु तस्मिन् अपि धातुत्वम् अस्ति तस्य प्रातिपदिकत्वमपि अस्ति धातुत्वमपि अस्ति क्विब् क्विब् विड् विजन्ताः धातुत्वं न जहाति इति
जहाति इति ओहाक् त्यागे इति धातोः रूपम् अस्ति जहाति जहितः जहति एवं रूपाणि भवन्ति न त्यजति धातुत्वं न त्यजति प्रातिपदिकत्वं सिद्ध्यति चेदपि धातुत्वं न जहाति बहु सम्यक् अधातो ब्रह्मजिज्ञासा इति एकं ब्रह्मसूत्रम् अस्ति प्रस्थानत्रयी इति लिखितमस्ति प्रस्थानम् इति परिचितं पदमस्ति सुजाता भगिनी वदतु प्रस्थानम्
अहं भगिनि प्रा उपसर्ग अस्ति स्था धातुतः स्थानं लुटन्तप्रत्यय भवति वा
ल्युट् प्रत्ययः
लुट् प्रत्ययः भवति प्रस्थानं भवति
स्थानमिति ल्युडन्तपदं त्रयं द्वयं चतुष्टयम् इत्यादीनि पदानि तद्धितान्तपदानि सन्ति किन्तु अत्र त्रयी इति लिखितमस्ति त्रयी इत्यत्र नीप् इति प्रत्ययः अस्ति तस्य कृते एकं सूत्रमस्ति स्त्री प्रत्ययानां प्रसङ्गे टिड्ढाणय्यन् इति एकं सूत्रमस्ति बहुदीर्घं सूत्रमस्ति तेन विशिष्टसूत्रेण त्रय इति प्रातिपदिकात् नीप्रत्ययस्य योजनेन त्रयी इति रूपमस्ति स्त्रीप्रत्ययानां प्रसङ्गे तत् सूत्रमायाति प्रस्थानत्रयी सुन्दरमहोदय भवान् वदतु वेदत्रयी इति किमर्थम् उच्यते
त्रयः भागाः सन्ति इति त्रयी इति सम्यक् न जानामि परन्तु ऊहां करोमि त्रयः भागाः सन्ति वेदानाम् इति कारणेन प्रस्थानत्रयी इति वेदस्य पर्यायवाचिशब्दः
न न न प्रस्थानत्रयी इति भिन्नः प्रस्थानत्रयी इत्युक्ते भगवद्गीता ब्रह्मसूत्राणि उपनिषदः तत्तु सत्यमेव भिन्नविषये वदन्ति अस्मि वेदत्रयी रमेश महोदय कृपया वदतु चतुर्वेदाः सन्ति वा केवलं त्रयः एव वेदाः सन्ति वा
अथर्वणवेदः इति नूतनं वेदः अस्ति इति
ऋग्यजु सामवेदाः एव सन्ति पश्चादेव अथर्वणवेदः आगतः अतः एव वेदत्रयी वेदमाता का रमेश महोदय वदतु
सरस्वती
गायत्री उत्तमं वेदानां माता वेदमाता गुणत्रयी इति कथयितुं शक्यते वा गुणत्रयम् इति एव वक्तव्यं वा नो चेत् गुणत्रयी इति अपि भवितुं शक्यते वा त्रयः गुणविशेषाः सन्ति खलु सत्त्वं रजः तमः इति
गुणः पुल्लिङ्गमेव
त्रयमेव वक्तुं शक्यते गुणत्रयम् इत्येव वक्तुं शक्यते इति भाति
एवमेव संस्कृतव्याकरणे मुनित्रयम् अस्ति भवान् वदतु संस्कृतव्याकरणे मुनित्रयं
मुनित्रयं पाणिनिमहर्षिः
कात्यायनः
कात्यायनः पतञ्जलिः
पतञ्जलिः पाणिनिः किं लिखितवान्
पाणिनिः व्याकरण व्याकरणशास्त्रं लिखितवान्
अष्टाध्यायी कात्यायनः किं लिखितवान्
कात्यायनः अष्टाध्याय्याः
वार्तिकानि
वार्तिकं लिखितवान्
पतञ्जलिमहर्षिः किं लिखितवान् महाभाष्यं पाणिनिना अष्टाध्यायी रचिता कात्यायनः वार्तिकानि लिखितवान् पतञ्जलिः महाभाष्यं लिखितवान् एवमेव भर्तृहरेः शतकत्रयमस्ति शुभदा भगिनी शतकत्रयं किम्
नीतिशतकं तु अहं जानामि अन्यद्वे न जानामि भगिनि
महोदय वदतु
नीतिशतकं शृङ्गारशतकं वैराग्यशतकम् इति
उत्तमं बृहत् ग्रन्थत्रयम् अस्ति बृहत् ग्रन्थत्रयी किरातार्जुनीयं नैषधीयचरितं शिशुपालवधं कोऽपि वदतु
हर्ष श्रीहर्षेण नैषधीयचरितं रचितम् एवं माघेन एव शिशुपालवधम् इति काव्यं रचितम् भारविणा भारविः एव रचितवान् किरातार्जुनीयम्
उत्तमं सामवेदः इति वदामः साम इति पदमस्ति प्रातिपदिकं किं रूपाणि वदतु
सामन् इति प्रातिपदिकम् अस्ति इति वा
सामन्
सामानौ सामानः
साम सामनि सामानि
साम सामनि सामानि एवं वक्तव्यं साम इत्यत्र नकारान्तप्रातिपदिकम् अस्ति साम सामनि सामानि प्रस्थानत्रयी त्रयी इति किमर्थं तत्र णीप्रत्ययस्य प्रयोगः किमर्थं कृतः प्रस्थानत्रयम् इति किमर्थं न लिखितम् इति चिन्तनीयं शुभदा भगिनी भवत्याः चिन्तनं किं
त्रयः अपि तिस्रः अपि स्त्रीलिङ्ग न परन्तु ब्रह्मसूत्रमिति नपुंसक न जाने भगिनी
अन्तिमपदं स्त्रीलिङ्गः अस्ति स्त्रीलिङ्गे अस्ति इति वा
भगवद्गीता इति पदं स्त्रीलिङ्गपदम् उपनिषदः इति अपि स्त्रीलिङ्गपदं किन्तु ब्रह्मसूत्राणि इति तु नपुंसकलिङ्गपदम् अन्तिमं पदं स्त्रीलिङ्गपदमस्ति इत्यतः प्रस्थानत्रयी अपि च पाषाणत्रयी इति अपि मया दृष्टमस्ति पाषाणत्रयी इति कथनेन किरातार्जुनीयम् इति ग्रन्थः अस्ति तस्मिन् ग्रन्थे त्रयः सर्गाः सन्ति तेषां नाम अस्ति पाषाणत्रयम् अर्थावगमने बहु काठिन्यमस्ति इति अहं चिन्तयामि वदतु
प्रथम सर्गम् अहं कृतवान् पूर्वमेव परन्तु बहु बहु काठिन्यं भवति तत्र
भारवेः अर्थगौरवम् इतोपि वदतु
दण्डिनः पदलालित्यं उपमानं कालिदासस्य पारवे न दण्डिनि दण्डिनः पदलालित्यं भारवेः अर्थगौरवं माघे त्रयमपि अस्ति इति तस्य अर्थः अस्ति परन्तु किं लिखितमस्ति इति विस्मृतवान्
बहु सम्यक् महोदय अग्रे सरेम इदानीं भूमा भगिनी अग्रिमवाक्यं भवती पठतु
मानापमानयोः शत्रौ मित्रे च समः जनः कृष्णस्य प्रियः कृष्णस्य षष्टिविभक्ति कृष्णस्य प्रियः
समस्तपदं कृत्वा वदतु
कृष्णप्रियः
उत्तमं मानापमानयोः विभक्तिः का
मानं च अपमानं च
मानः च अपमानः च
तयोः
मन् धातोः रूपमेव मानः अप उपसर्गपूर्वकः अस्ति चेत् अपमानः मानः अपमानः पुंलिङ्गपदद्वयमस्ति मानः च अपमानः च मानापमानयोः विभक्तिः का
तयोः षष्ठी विभक्ति
किमर्थं सप्तमी नास्ति
शत्रुः शत्रौ सप्तमी
मानापमानयोः इति अपि सप्तमी एव
विशेषणविशेषणं
न मानापमानयोः शत्रौ मित्रे च मानापमानयोः इति भिन्नं पदं शत्रौ इति भिन्नं पदं मित्रे इति भिन्नं पदम् एतेषु स्थितिषु समः जनः कृष्णस्य प्रियः मानापमानयोः इति सप्तमी द्विवचनं शत्रौ वदतु
शत्रौ शत्रुः उकारान्त पुल्लिङ्गः शत्रौ सप्तमी विभक्ति
मित्रे वदतु
मित्रे मित्रं मित्रे मित्राणि
अत्र विभक्तिः का
मित्रे प्रथमाविभक्तिः
प्रथमाविभक्तिद्विवचनरूपमपि अस्ति सप्तमी विभक्ति एकवचनरूपमपि अस्ति अत्र किं वक्तव्यं
सप्तमी विभक्ति एव शत्रौ सप्तमी मित्रे सप्तमी एव
मित्रं मित्रे मित्राणि मित्रं मित्रे मित्राणि इति रूपम् अस्ति चेदपि प्रथमाविभक्ति द्विवचनरूपं द्वितीयाविभक्तिद्विवचनरूपं तथा अस्ति चेदपि अत्र तु सप्तमी विभक्ति एकवचनरूपं स्वीकर्तव्यम् अस्य अर्थः कः
मानस्य अपमानस्य च शत्रुः मित्रः यः मान अपमान योः समं स्वीकरोति वः मनुष्यः कृष्णस्य प्रियः.
उत्तमं. समः जनः कृष्णस्य प्रियः विशेषणविशेषभावः. मनापमानयोः शत्रौ मित्रे च समः जनः कृष्णस्य प्रियः. कृष्णस्य प्रियः कः इति प्रश्ने सति मनापमानयोः शत्रौ मित्रे च समः इति श्लोकः अस्ति. समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः इति तत्र श्लोकः अस्ति. सङ्गविवर्जितः. सुन्दरमहोदय भवान् वदतु, सङ्गविवर्जितः इत्यत्र समासः कः?
सङ्गेषु विवर्जितः इति. सङ्गेषु विवर्जितः
तथा नास्ति. रमेश महोदय भवान् वदतु, विवर्जित इति क्तान्तरूपम् अस्ति.
सङ्गात् विवर्जितः इति भवेत्, परन्तु सूत्रं किमपि नास्ति इति अहं चिन्तयामि. पञ्चमी बयेन एव अस्ति. तर्हि तृतीया विभक्त्याम् एव भवेत् कर्तृकरणं कृताबहुलम्.
उत्तमं. कर्तृकरणे कृताबहुलं समस्तपदं कुर्मः चेत् तस्य समर्थनं कर्तुं समासविधायकसूत्रम् अपेक्षितमस्ति. पञ्चमी तत्पुरुषसमासस्य प्रसङ्गे पञ्चमी भयेन इति सूत्रं दत्तमस्ति. इत्युक्ते अत्र सङ्गात् विवर्जितः इति विग्रहवाक्यं वदामश्चेत् तस्य समर्थनं कर्तुं समासविधायकसूत्रं नास्ति. अतः सङ्गेन विवर्जितः इति विग्रहवाक्यमेव वक्तव्यं भवति. अतः तृतीया तत्पुरुषसमासः. अग्रिमं वाक्यं भूमा भगिनी भवती वदतु.
सन्यासः कर्मयोगः च निःश्रेयसकरौ स्तः. सन्यासः कर्मयोगः च सन्यासिन्.
सन्यासः इति अकारान्तपदमस्ति. सन्यासिन् इति भिन्नप्रातिपदिकमस्ति. सन्यासिन् इति प्रातिपदिकं स्वीकृत्य सन्यासी इति रूपं साधयितुं शक्नुमः. सा वार्ता भिन्ना अस्ति. निःश्रेयसकरौ इति द्विवचनरूपं दत्तमस्ति. एकवचनं वदतु.
निःश्रेयसकरः.
निःश्रेयसकरः. निःश्रेयसकरः कः वदतु.
निःश्रेयसकरः सन्यासः. सन्यासी.
निःश्रेयसकरः मोक्षप्रदायकः इति अर्थः. निःश्रेयसकरः इति कथनेन मोक्षप्रदायकः, मोक्षप्रदाता. अस्मिन् अध्याये एकं वाक्यम् अस्ति, कर्मसन्न्यासात् कर्मयोगः विशिष्यते इति गीतायाम् उक्तमस्ति. कर्मयोगं स्वीकरोतु, कर्म करोतु इति एव लिखितमस्ति. अत्र कर्मयोगः इति समस्तपदं. विग्रहवाक्यं वक्तव्यं. सुन्दरमहोदय वदतु.
कर्मणः योगः कर्मयोगः इति. सारि, इद् कर्मणा योगः. करेक्ट्. कर्मणा योगः तृतीया विभक्ति, तृतीया तत्पुरुषः. कर्मणा योगः कर्मयोगः इति भवति.
तथा नास्ति. कर्म एव योगः इति मया पठितं. कर्म एव योगः अवधारणापूर्वपदकर्मधारयसमासः इति मया पठितमासीत्. ज्ञानयोगः इति कथनेन ज्ञानम् एव योगः इति वक्तव्यमस्ति. निःश्रेयसः इत्युक्ते मोक्षः. निःश्रेयसकरः इति मोक्षप्रदाता. निःश्रेयसः इति कथनेन निश्चितं श्रेयः यस्मात् सः इति वक्तुं शक्यते. स्तः इति लिखितमस्ति. भूमा भगिनी एकवारं रूपाणि वदतु. अस् धातोः रूपाणि
अस्ति, स्तः, सन्ति, असि, स्थः, स्थः, अस्मि, स्वः, स्मः.
बहु सम्यक्. अग्रिमं वाक्यं.
साङ्ख्यं च योगञ्च एकं यः पश्यति सः पश्यति. साङ्ख्यं नपुंसकलिङ्गं वा?
नपुंसकलिङ्गं. भवती जानाति वा, साङ्ख्यदर्शनशास्त्रम् अस्ति. साङ्ख्यदर्शनशास्त्रं केन रचितम्?
कपिलमुनिना. रचिता
बहु सम्यक् कपिलमहर्षिण लिखितमस्ति तदर्थमेव विष्णुसहस्रनाम पठामश्चेत् महर्षिः कपिलाचार्यो इति नाम अस्ति कपिलमहर्षिण साङ्ख्यदर्शनशास्त्रं लिखितमस्ति अत्र तस्मिन् प्रसङ्गे एव लिखितमस्ति साङ्ख्यम् इति कथनेन साङ्ख्यदर्शनशास्त्रं योगदर्शनशास्त्रं केन रचितम् सुन्दरमहोदय सुभदा भगिनी कृपया वदतु
आं भगिनि पतञ्जलिमहर्षिणा योगशास्त्रं विरचितम्
एकं सूत्रमस्ति खलु योगः चित्तवृत्तिनिरोधः
निरोधः आम्
पतञ्जलेः योगसूत्राणि सन्ति तेषां प्रसङ्गे एव अत्र लिखितमस्ति साङ्ख्यं योगम् एकं च यः पश्यति स पश्यति यः पश्यति स पश्यति इति लिखितमस्ति अत्रापि लिखितमस्ति किमर्थं द्विवारं पश्यति पश्यति द्वितीयवारं पश्यति इति कथनेन तस्य अर्थः कः किमर्थम् अत्र द्विवारं लिखितमस्ति यः पश्यति स पश्यति
यः साङ्ख्यं योगं च समं पश्यति
एकं समं पश्यति सः जानाति इति अर्थः यः पश्यति स पश्यति इति लिखितमस्ति तत्र यः पश्यति किं पश्यति साङ्ख्यं च योगं च एकं यः पश्यति सः यदार्थज्ञानी साङ्ख्यदर्शनशास्त्रम् अस्ति तस्मिन् यद् लिखितमस्ति तस्य सारांशत्वेन एव भगवद्गीतायां द्वितीयाध्याये उक्तमस्ति भगवद्गीतायाः द्वितीयाध्यायस्य नाम अस्ति साङ्ख्ययोगः तस्मिन् साङ्ख्यदर्शनशास्त्रे यदुक्तमस्ति तदेव सारांशत्वेन लिखितमस्ति अग्रिमं वाक्यं वदतु
भूमिः आपः अनलः वायुः खं मनः बुद्धिः अहङ्कारः च इति भगवतः प्रकृतिः अष्टधा भगवतेन
तकारान्तपदमस्ति भगवत् इति प्रातिपदिकमस्ति भगवता वदतु
भगवता सृष्टि
अत्रैव लिखितमस्ति खलु भगवतः प्रकृतिः अष्टधा भगवतः प्रकृतिः कतिधा वर्तते
अष्टधा वर्तते कः के भूमिः आपः अनलः वायुः खं मनः बुद्धिः अहङ्कारः इति अष्टप्रकृतयः भगवता सृष्टि
अत्र प्रश्नः कः भगवतः प्रकृतिः कतिधा वर्तते अष्टधा वर्तते तत्र भूमिः इकारान्तपदमस्ति भवन्ति भूतानि अस्याम् इति भूमिः भवन्ति भूतानि अस्याम् आपः इति बहुवचनान्तशब्दः सुन्दरमहोदय भवान् वदतु आपः प्रसङ्गे
नित्यं बहुवचनम् अस्ति जलानि इति तस्य पर्यायवाचिशब्दः जलं नित्यं बहुवचनम् अस्ति
इत्युक्ते तस्य एकवचनरूपं द्विवचनरूपं नास्ति अपाम् इति किं रूपम् अस्ति
अपाम् इति षष्टिविभक्ति रूपम् अस्ति षष्टि बहुवचनम्
उत्तमं षष्टि बहुवचनरूपम् अस्ति आपगा इत्युक्ते नदी
नदी गङ्गा
आपगा इत्युक्ते नदी इति अर्थः अस्ति अपां समूहः आपगा अनलः इति किमर्थम् उक्तमस्ति
अनलः अग्निः अनलः
भवान् जानाति खलु अलम् अलम् इत्युक्ते
अलम् इत्युक्ते पर्याप्तम् इति अर्थः भवति
पर्याप्तम् इति अर्थः अस्ति कोपेन अलं कोलाहलेन अलं क्रोधेन अलम् इत्यादीनि रूपाणि वयं जानीमः किन्तु अत्र अनलः इति लिखितमस्ति
न अलं यस्य सः अनलः
बहूनां वस्तूनां दहने अपि अस्य तृप्तिः नास्ति तथा वक्तुं शक्यते खलु
आम् आम् सर्वं नाशयति अग्निः
बहूनां वस्तूनां दहने अपि अस्य तृप्तिः नास्ति तृप्तेः अभावात् नास्ति अलं यस्य सः इति वक्तुं शक्यते अनलः भिन्नं पदम् अनिलः भिन्नं पदं खलु
अनिलः इत्युक्ते वायुः इति अर्थः किल
वायुः प्रसङ्गे किञ्चित् वदतु धातोः रूपं किम् अस्ति वायुः इत्यत्र
वायुः इत्युक्ते वायुस् इति
धातुगन्धनयोः
बहु सम्यक् वा गतिगन्धनयोः वा धातुः अस्ति वा धातुः गतिगन्धनयोः इत्यस्मिन् अर्थे अदादिगणे अस्ति वा धातोः रूपं वाति सुजाता भगिनी वा धातुतः वाति कथं साधनीयम्
तत्र गणप्रत्ययः नास्ति इत्यनेन वायोगः वाति भवति
तावदेव किमपि कार्यं नास्ति उत्तमं वा धातोः लटीरूपं प्रथमपुरुष एकवचनरूपं वाति अदादिगणे अस्ति वा धातोः रूपमेव वायुः गुणादिप्रत्ययेन निर्मितम् इति मया पठितमस्ति
घञ्प्रत्ययेन वायुः इति पदं भवति वा
घञ् नास्ति उणादिप्रत्ययेन निर्मितम् इति मया दृष्टं महोदय वायुपुत्रः कः भवान् वदतु
हनुमान्
भीमः अपि खलु खम् इति लिखितम् अस्ति रमेश महोदय भवान् वदतु खम् इति कथनेन आकाशः खम् शब्दस्य रूपाणि एकवारं स्मारयतु
नपुंसकम् अस्ति
नपुंसकलिङ्गपदं
खं खे खानि
खं खे खानि खं खे खानि खे गच्छति इति खगः खे गच्छति इति कथनेन
आकाशे गच्छति
आकाशे गच्छति इति अर्थः खे गच्छति अथवा आकाशे गच्छति इति खगः खगः इत्युक्ते पक्षी पक्षी इत्यत्र प्रातिपदिकं किं सुन्दरमहोदय
नकारान्तप्रातिकं पक्षिन् इति अर्थे पक्षी पक्षिणौ पक्षिणः पक्षि इति
उत्तमं किमर्थम् आकाशः स्वयं विष्णुः इति उक्तमस्ति कोऽपि वदतु आकाशः स्वयं विष्णुः
आकाशः स्वयं विष्णुः इत्युक्ते विष्णुना विष्णु एव आकाशः निर्मितवान् आकाशं निर्मितवान् इति अर्थः सिद्ध्यति
विष्णुः इति कथनेन व्याप्नोति इति विष्णुः व्याप्नोति इति विष्णुः सर्वव्यापकः इति अर्थः अस्ति आकाशः अपि एवमेव तदर्थमेव आकाशः स्वयं विष्णुः इति उक्तमस्ति आकाशः सर्वत्र व्याप्तः आकाशः गगनं शून्यम् इत्यादीनि पर्यायवाचकपदानि सन्ति मनः इत्यस्य प्रातिपदिकं किं सुजाता भगिनी
मनस् अस्ति मनः मनसि मनांसि मनः मनसि मनांसि
लिङ्गं किं
नपुंसकलिङ्गम् अस्ति
बुद्धिः इति कीदृशं पदम्
बुद्धिः इकारान्त
स्त्रीलिङ्गपदं
स्त्रीलिङ्गपदं
क्तिन् प्रत्ययान्तरूपम् अस्ति बुद्धधातोः क्तिन् प्रत्ययान्तरूपं बुद्धिः तत्र हल्सन्धिकार्याणि सन्ति भगवतः इत्यत्र विभक्तिः
भगवतः षष्टि
एकवचनमस्ति भगवत् इति प्रातिपदिकमस्ति प्रथमाविभक्ति एकवचनं किम् अस्ति
भगवत् भवान् भवान् भवन्तौ
भवन्तः
भगवान् क्षम्यतां भगिनि भगवान्
भगवान् यस्मिन् अहङ्कारः अस्ति सः
अहङ्कारी
इति भवति. प्रकृतिः इति रूपं कथं साधनीयं सुन्दरमहोदय?
प्र इति उपसर्गपूर्वक कृधातोः तिन् प्रत्ययस्य योजनेन प्रकृतिः इति पदं सिद्ध्यति.
उत्तमं. प्र उपसर्गपूर्वकः कृतिः इति भवति. अष्टधा इति कथनानि अधः कः?
अष्टधा इति अष्टप्रकारकः इति अर्थः.
विग्रहवाक्यं कथं वक्तव्यम्?
अष्टम् अष्ट दधाति इति
न द्विधा त्रिधा चतुर्धा पञ्चधा षड्धा सप्तधा बहुधा कतिधा यावद्धा ईदृशानि पदानि सन्ति. तत्र प्रातिपदिकं स्वीकृत्य धा इति प्रत्ययः युज्यते. द्विधा इति पदं जानीमः खलु? द्विधा उच्यते, त्रिधा भवति, चतुर्धा, सप्तधा. अस्मिन् वाक्ये अष्टधा इति लिखितमस्ति. एकवारं वदामि, एकेन प्रकारेण इति कथनेन एकधा इति भवति. द्विधा इति कथनेन विग्रहवाक्यं कथं भवति रमेश महोदय?
द्वौ प्रकारौ इति द्विधा.
त्रिधा इति कथनेन त्रिभिः प्रकारैः.
किमर्थं तद् तृतीयायाम् अस्ति?
किमर्थं तथा तृतीयायाम् अस्ति इति प्रश्नः. तत्र विग्रहवाक्यानि एकवारं वदामि. एकेन प्रकारेण एकधा, त्रिभिः प्रकारैः इति त्रिधा, चतुर्भिः प्रकारैः चतुर्धा, पञ्चभिः प्रकारैः पञ्चधा, षड्भिः प्रकारैः षड्धा, बहुभिः प्रकारैः बहुधा, कतिभिः प्रकारैः कतिधा, यावद्भिः प्रकारैः यावद्धा. अत्र अष्टभिः प्रकारैः अष्टधा. तथा विग्रहवाक्यं वक्तव्यम्. सङ्ख्यावाचिभ्यः शब्देभ्यः धा प्रत्ययः भवति. सङ्ख्यावाचिभ्यः शब्देभ्यः धा प्रत्ययः भवति. विग्रहवाक्ये तृतीयाविभक्तेः प्रयोगः भवति.
द्वाभ्यां प्रकाराभ्याम् इति भवति खलु?
द्वाभ्यां प्रकाराभ्यां. साधु महोदय. अष्टभिः प्रकारैः इति अष्टधा भवति. भगवतः प्रकृतिः अष्टधा वर्तते. किञ्चिदेव पठित्वा समापयामः. श्लोकानां सङ्ख्याः दत्ताः. विंशतिः श्लोकसङ्ख्याः अत्र दत्ताः. एते श्लोकाः इदानीं मम स्मरणे न सन्ति. एते श्लोकाः भवद्भिः दृष्टपूर्वाः इति वक्तुं शक्यते. एतेषु श्लोकेषु चकारस्य प्रयोगः कृतः दृश्यते. एतत् सर्वं भवन्तः ज्ञातुमिच्छन्ति चेत् एकवारं गीतापुस्तकं पश्यन्तु. विंशतिश्लोकानां सङ्ख्याः दत्ताः. विंशतिः इत्यत्र एकवचने एव रूपाणि वक्तव्यानि इति मया पठितम्. विंशतिः, विंशतिं, विंशते, विंशत्यै, विंशतेः, विंशत्याम् एवम् एकवचने एव रूपाणि वक्तव्यानि. ज्ञातुमिच्छन्ति चेत् श्लोकान् एकवारं पश्यन्तु. अग्रे कानिचन वाक्यानि दत्तानि. तानि वाक्यानि परिशील्य समापयामः. सुजाता भगिनी भवती एव पठतु.
रमा पठति, नूतनः पठति, गिरिः पठति. रमा नूतनः, गिरिः च पठन्ति. च प्रत्ययस्य उपयोगं कृतः अस्ति. अन्ते भवति. रमा नूतनः, गिरिः च पठन्ति. उदाहरणमस्ति
अत्र यानि यानि वाक्यानि दत्तानि तेषु वाक्येषु चकारस्य प्रयोगः अन्ते एव कृतः दृश्यते अपि च वाक्येषु चकारस्य अन्वयः साकल्येन भवति तदर्थमेव रमा नूतनः गिरिः च पठन्ति अग्रे पठतु
अत्र शिशवः बालाः युवकाः युवत्यः ज्येष्ठाः च सन्ति बहुवचन बहुवचने अस्ति अत्र शिशवः शिशुशब्दस्य बहुवचनं शिशवः बालः शब्दस्य बालाः
शिशुः तत्र रूपाणि वदतु
शिशवः
गुरुशब्दवत्
गुरु शिशवः दीर्घ उकारमस्ति
शिशुः शिशु शिशवः
शिशुवः
शिशुं
शिशवः
द्वितीय बहुवचनं
शिशून्
बालाः इति दत्तमस्ति पुंलिङ्गपदं वा स्त्रीलिङ्गपदं वा
बालाः पुल्लिङ्ग बहुवचनम् अस्ति स्त्रीलिङ्गम् अपि अस्ति
स्त्रीलिङ्गमस्ति चेत् एकवचनं
बाला भवति बालः भवति पुल्लिङ्गं बाला भवति स्त्रीलिङ्गम्
उत्तमं युवत्यः इत्यत्र एकवचनरूपं किम् अस्ति
युवती युवत्यौ युवत्यः
उत्तमं युवती युवत्यौ युवत्यः नदीशब्दवत् रूपाणि वक्तव्यानि युवतिः इति पदमपि अस्ति मतिशब्दवत् युवतिः इति रूपमपि अस्ति ज्येष्ठाः इति पदमस्ति इदं पदं नूतनं पदं रमेश महोदय भवान् वदतु ज्येष्ठः इति कीदृशं पदम्
ज्येष्ठः ज्येष्ठः इत्युक्ते एल्डर्स् इति परन्तु इष्टन् प्रत्ययः
इष्टन् प्रत्ययः वदतु
जायः जायान् ज्येष्ठः
तथा नास्ति रमेश महोदय भवान् वदतु
पूर्वं जातः इति ज्येष्ठः परन्तु
इष्टन् प्रत्ययः इष्टन् प्रत्ययान्तरूपाणि कानिचन रूपाणि वदतु
श्रेष्ठः इति श्रुतवान् ज्येष्ठः
कनिष्ठः गरिष्ठः लघिष्ठः
श्रेयान् श्रेष्ठः श्रेयः श्रेयान् श्रेष्ठः
तथा न वदामः महोदय श्रेष्ठः इति इष्टन् प्रत्ययः श्रेयान् इति ईसन् प्रत्ययः इष्टन् प्रत्ययस्य प्रयोगः कुत्र भवति ईसन् प्रत्ययस्य प्रयोगः कुत्र भवति इति स्पष्टतया ज्ञातव्यम् श्रेयान् गरीयान् कनीयान् ज्यायान् इमानि पदानि ईसन् प्रत्ययान्तपदानि किन्तु ज्येष्ठः श्रेष्ठः कनिष्ठः गरिष्ठः इत्यादीनि पदानि इष्टन् प्रत्ययान्तपदानि सुन्दरमहोदय भवान् वदतु ज्येष्ठः इति प्रसङ्गे किं ज्ञातव्यम्
किं ज्ञातव्यं ज्येष्ठः इत्युक्ते सर्वेषु ज्या प्रत्ययः किल ज्येष्ठः त्रयः जनाः सन्ति सर्वे त्रिषु सः ज्येष्ठः इति वक्तव्यम्
बहवः पदार्थाः सन्ति इत्युक्ते बहवः जनाः सन्ति तेषु एकः अतिशयेन वृद्धः आङ्ग्लभाषया वक्तुमिच्छामि चेत् सूपर्लेटिव् डिग्री इति वदामः सूपर्लेटिव् डिग्री भिन्नः कम्पेरेटिव् डिग्री भिन्नः कम्पेरेटिव् डिग्री कदा आयाति केवलं द्वयोः प्रसङ्गे वदामश्चेत् कम्पेरेटिव् डिग्री. इयसुन् प्रत्ययः केवलं जनद्वयमस्ति चेदेव इयसुन् प्रत्ययस्य प्रयोगः भवति. श्रेयान्, गरीयान्, कनीयान् इत्यादीनि रूपाणि इयसुन् प्रत्ययान्तरूपाणि. इयसुन् प्रत्ययः त्रिषु लिङ्गेषु सम्भवति. पुंलिङ्गे गरीयान् भवति, स्त्रीलिङ्गे गरीयसी भवति, नपुंसकलिङ्गे गरीयः. तानि रूपाणि इयसुन् प्रत्ययान्तरूपाणि. किन्तु अत्र इष्टन् प्रत्ययः अस्ति. बहवः जनाः सन्ति, तेषु एकः अतिशयेन वृद्धः इति प्रसङ्गे ज्येष्ठः. इतोपि तत्र शास्त्रीयचिन्तनं किम् इति प्रश्ने सति प्रशस्यस्य श्रः इति एकं विशिष्टं सूत्रमस्ति. बहवः जनाः सन्ति, ते सर्वे प्रशस्याः, किन्तु एतेषु अतिशयेन प्रशस्यः एकः अस्ति, सः श्रेष्ठः इति वदामः. श्रेष्ठः इति प्रसङ्गे किं वक्तव्यं? सर्वे प्रशस्याः एव, किन्तु एकः तेषु अतिशयेन प्रशस्यः, अतः सः श्रेष्ठः. अत्र ज्येष्ठः इति लिखितमस्ति. तत्र बहवः जनाः सन्ति, ते सर्वे वृद्धाः एव, किन्तु तेषु एकः अतिशयेन वृद्धः, अतः प्रशस्य इति स्थाने यथा श्रा आदेशः भवति तथा एव अत्र ज्याच इति एकं सूत्रमस्ति. ज्याच ज्याच इति सूत्रेण ज्या आदेशः भवति. अत्र ज्याच इति अष्टाध्याय्यां सूत्रमस्ति. प्रशस्यस्य श्रः इति सूत्रस्य कार्यं कुत्र अस्ति? श्रेष्ठः, श्रेयान् इत्यादिषु पदेषु प्रशस्यस्य श्रः इति सूत्रं स्मर्तव्यं. ज्येष्ठः इत्यत्र ज्याच इति सूत्रमस्ति. तत्र प्रशस्य स्थाने ज्याच सूत्रेण ज्या आदेशः भवति. ज्या इति आदेशः भवति चेत् ज्या योगः इष्टन्. इदानीं चिन्तनं किं भवति? इष्टन् इत्यत्र नकारः हलन्त्यम् इति सूत्रेण इत्संज्ञकः भूत्वा अपगच्छति. इष्ट अवशिष्यते, ज्या योगः इष्ट इति स्थितिः अस्ति. तत्र गुणसन्धिकार्यं भवति, तेन ज्येष्ठ इति रूपं सिद्ध्यति. अत्र स्मर्तव्यः अंशः कः? ज्याच इति सूत्रेण ज्या आदेशः भवति. प्रशस्य स्थाने ज्यच सूत्रेण ज्या आदेशः भूत्वा कार्यं भवति. इष्टन् प्रत्ययान्तरूपम् इदं. बहूनि पदानि तत्र सन्ति. इयसुन् प्रत्ययः इति कथनेन कम्पेरेटिव् डिग्रि, इष्टन् प्रत्ययः इति कथनेन सुपर्लेटिव् डिग्रि. एतादृशरीत्या एव तरप् प्रत्ययः, तमप् प्रत्ययः अपि अस्ति. तमप् प्रसङ्गे वदतु.
तरप् सः वृद्धः, वृद्धतरः, तमः. एतत् श्रेष्ठतरः, श्रेष्ठतमः इति.
इयसुन् प्रत्ययः, तरप्रत्ययः, एतौ द्वौ समानार्थकप्रत्ययौ. एवमेव इष्ठन् प्रत्ययः, तमप् प्रत्ययः, एतौ द्वौ समानार्थकप्रत्ययौ. अग्रे सरेम. अग्रिमं वाक्यं सूर्यकुमारी भगिनी भवती पठतु.
प्रयोगे
प्रयागे
प्रयागे गङ्गा, यमुना, सरस्वती च इति तिस्रः नद्यः मिलन्ति. गङ्गा, यमुना, सरस्वती स्त्रीलिङ्गपदानि च अन्ते अस्ति इति तिस्रः नद्यः मिलन्ति. त्रीणि पदानि श्रीलिङ्गे अस्ति चेत् तिस्रः नद्यः मिलन्ति, बहुवचनम् अस्ति.
अत्र प्रयागः इति लिखितम् अस्ति. प्र उपसर्गपूर्वक यागः इति वक्तुं शक्यते खलु?
प्रयोग आम् हा भगिनि.
सुन्दर महोदय भवान् वदतु. प्रयागः इति कथनेन
योगः, मेलनं भवति. यत्र यत्र मेलनं भवति स तत्र प्रयागः इति
महोदय यागः भिन्नः योगः भिन्नः
योगः भिन्नः आं भगिनि
योगः इत्युक्ते मेलनं किन्तु अत्र यागः
प्रयागः परन्तु तत्र रुद्रप्रयागः इति भवति त्रयः प्रयागः प्रयागाः भवन्ति रुद्रप्रयागः त्रयः प्रयागः भवति
अहं किं श्रोतुमिच्छामि इत्युक्ते यागः इति कथनेन यज्ञः इति वक्तुं शक्यते वा
तादृशम् अर्थः अहं न ऐ एम् नाट् श्योर्
शब्दकोशे प्रकर्षेण यज्ञः यत्र भवति सः प्रदेशः एव प्रयागः प्रकृष्टः यागः प्रयागः इति लिखितम् रमेश महोदय भवान् वदतु सरस्वती इति पदम् अतु प्रत्ययान्तपदं भवितुम् अर्हति वा
सरस्वती भवितुम् अर्हति
पुंलिङ्गे किं रूपं साधयितुं शक्नुमः पुंलिङ्गरूपं
पुंलिङ्गरूपं बुद्धिमत् इत्युक्ते बुद्धिमत् भवति अकारान्ते अस्ति चेत् वत् भवति खलु
भवति
भवति
अत्र पुंलिङ्गरूपं किं भवितुमर्हति
सरस्वत् इति एव
सरस्वत् इति प्रातिपदिकम्
प्रातिपदिकं सरस्वान् इति
सरस्वान् इति पुंलिङ्गरूपं भवितुमर्हति सरस् इति सकारान्तप्रातिपदिकं सकारान्तप्रातिपदिकमस्ति चेदपि मतु प्रत्ययस्य प्रसङ्गे यद्यपि प्रत्ययः मतुप्पेव तथापि सकारान्तप्रातिपदिकमस्ति इति कारणतः मकारस्य स्थाने वकारः आयाति न केवलम् अदन्तप्रातिपदिकेभ्यः गुणवान् गुणवती तत्र अकारान्तप्रातिपदिकमस्ति किन्तु सरस् इति सकारान्तप्रातिपदिकमस्ति सकारान्तप्रातिपदिकमस्ति प्रत्ययः मतु प्रत्ययः अस्ति चेदपि मकारस्य स्थाने वकारः आयाति इति कृत्वा सरस्वत् इति प्रातिपदिकं पुंलिङ्गे सरस्वान् स्त्रीलिङ्गे सरस्वती भूमा भगिनी अग्रिमं वाक्यं वदतु
भगिनी अत्र एकः समासः अस्ति सुधाटीकायाम् अस्ति सरः विद्यास्थानम् अस्ति यस्याः इति सरस्वती इति
पुनः वदतु
सरः विद्यास्थानम् अस्ति यस्याः सरः विद्यास्थानम् अस्ति यस्याः इति सरस्वती ताम् वाग्देवताम् इत्यर्थः
बहु सम्यक्
अस्माकं परीक्षा सोमवासरे मङ्गलवासरे च अस्ति
मङ्गलवासरे इति लिखितं वा पश्यतु
मङ्गलवासरे
किमर्थं तथा लिखितं लकारः किमर्थमस्ति प्रादेशिकभाषासु मङ्गल इति वदामः किन्तु संस्कृतभाषायां मङ्गलवासरः
न अस्ति
आदौ संस्कृतव्याकरणे लकारः एव अस्ति पश्चात् लकारः अपि योजितः आदौ केवलं लकारः अस्ति अस्मिन् अवसरे लकारः एव वक्तव्यः वदतु
मङ्गलवासरे सप्तमी विभक्ति एकवचनं सोमवासरे अपि सप्तमी विभक्ति एकवचनं सोमवासरे अस्माकं परीक्षा अस्माकं षष्ठी विभक्ति अस्मत् शब्दं परीक्षा
ईक्षधातुः अस्ति ईक्षधातोः रूपम् ईक्षते परि उपसर्गपूर्वक ईक्षधातुतः निर्मितं पदम्
आकारान्त स्त्रीलिङ्गमस्ति परीक्षा
उत्तम अग्रिमं वाक्यं
विमलायाः विमलेशस्य च
अत्र प्रत्ययः किं प्रत्ययः कः परिपूर्वक ईक्षुधातोः टाप् प्रत्ययः वा
स्त्रीलिङ्गपदानां प्रसङ्गे स्त्रीप्रत्ययानां योजनं भवति तु सत्यं किन्तु तस्मात् पूर्वम् इतोपि अन्यप्रत्ययः योजनीयः परि उपसर्गपूर्वक ईक्षुधातुतः स्त्रीप्रत्ययस्य योजनेन न सिध्यति इति मम अवगमनम् इतोपि तत्र कार्यमस्ति अग्रिमं वाक्यं भवानेव पठतु
विमलायाः विमलेशस्य च कक्ष्या कुत्र अस्ति? विमलायाः
विमलः इति पुंलिङ्गपदमस्ति. विमलः तत्र विग्रहवाक्यं वदतु.
विगतं विगतं मलं यस्मात् सः.
अत्र मलम् इति नपुंसकलिङ्गपदं वा?
आम् आं भगिनि, नपुंसकलिङ्गपदमेव. विगतं मलं यस्मात् सः. मलम् इति अळुक्, दट् इस् गन्दगी.
आम् पुंलिङ्गे
विगतः मलः इति न आगच्छति. विगतं मलं यस्मात् सः.
विगतं मलं यस्मात् सः इति विग्रहवाक्यम् इत्युक्ते बहुव्रीहिसमासः भवति चेत् विमलः इति रूपं सिध्यति. तत्र विमल इति प्रातिपदिकं सिध्यति. विमल इति अदन्तप्रातिपदिकं, विमल इति अदन्तप्रातिपदिकमस्ति इति कारणतः अजाद्यत स्टाप् इति सूत्रेण टाप् प्रत्ययः विहितः भवति इति कारणतः विमला इति आकारान्तस्त्रीलिङ्गपदं सिध्यति. आदौ प्रातिपदिकं किं सिध्यति? विमल इति प्रातिपदिकं सिध्यति. विमल इति प्रातिपदिकम् अदन्तप्रातिपदिकम् अजादिगणीयशब्दः अस्ति चेत् अथवा अदन्तप्रातिपदिकम् अस्ति चेत् टाप् प्रत्ययः विहितः भवति अजाद्यतष्टाप् इति सूत्रेण. तेन विमला इति रूपं सिध्यति. तादृशचिन्तनं परीक्षा इति प्रसङ्गे अस्ति वा?
परिपूर्वक ईक्षुधातोः योजनेन किं भवति? परीक्षा इति प्रातिपदिकं सिध्यति वा न वा?
रमेश् महोदय, भवान् जानाति चेत् वदतु.
अहं दृष्टवान् महोदय कल्पद्रुमायाम्. अह इति भावे प्रत्ययः अस्ति. परीक्षा इति सिध्यति. तत्पश्चात् टाप् प्रत्ययः.
इत्युक्ते तस्मात् पूर्वम् एकः प्रत्ययः स्यात्. जानाति चेत् प्रत्ययस्य प्रसङ्गे वदतु किञ्चित्.
अहं न जानामि महोदय, दृष्ट्वा वदामि. तदेव तत्र दत्तमस्ति. परियोगः, ईक्ष्योगः, गुरोश्च हलः इति सूत्रेण इति अह ततश्टाप् इति दत्तमस्ति.
ततः टाप् अन्ततो गत्वा टाप् प्रत्ययः विहितः भवति. सुन्दर महोदय, विमला इत्यत्र विग्रहवाक्यं किं भवति?
विगतं मलं यस्याः सा, यस्याः सा विमला इति प्रातिपदिकं सिध्यति बहुव्रीहि समासे.
मला इति शब्दः नपुंसकलिङ्गे एव अस्ति वा?
प्रायः द्वयोः अपि. अहं तु श्रुतवान् नपुंसकलिङ्गे एव श्रुतवान् अद्यपर्यन्तं, परन्तु प्रायः पुल्लिङ्गमपि भवितुम् अर्हति.
पुंलिङ्गे अपि अस्ति, नपुंसकलिङ्गे अपि अस्ति. अग्रिमं वाक्यं किम् अस्ति? अन्तिमं वाक्यं भवान् पठतु.
इदं जलं राजेशाय, कल्पनायै, रमायै च यच्छतु. इदं जलं यच्छतु. सो इदं जलं नपुंसकलिङ्गं जलम् इति कारणेन
विभक्तिः
विभक्तिः इदं जलं द्वितीया विभक्ति एकवचनं.
चतुर्थीरूपं किमर्थमस्ति?
चतुर्थीरूपं तस्मै यच्छतु इति कारणेन चतुर्थी विभक्ति सिध्यति.
यच्छतु इति कथनेन अर्थः कः?
ददातु इति अर्थः सिध्यति.
केभ्यः ददातु?
कस्मै इत्युक्ते राजेशाय वा, कल्पनायै वा, रमायै वा, रमाय च ददातु. राजेशाय, कल्पनायै, रमायै च ददातु.
राजेशः पुंलिङ्गपदमस्ति इति कारणतः राजेशाय, कल्पना इति स्त्रीलिङ्गपदमस्ति इति कारणतः कल्पनायै ददातु. रमा आकारान्तस्त्रीलिङ्गपदमस्ति इत्यतः रमायै ददातु. अवधेयम् इति पदं लिखितमस्ति, तस्मिन् प्रसङ्गे वदतु.
अवधेयं अवधानं ददातु इति अर्थः अवधेयं तदपि तद्धितप्रत्ययः एव
न न तद्धितप्रत्ययः नास्ति
नास्ति वा ओ अवधेयम् इति अवधानं ददातु इति
रमेश महोदय अवधेयम् इति रूपम् अस्ति तत्र धातुः कः उपसर्गः कः प्रत्ययः कः
अव इति उपसर्गः अस्ति
धी
धी इति प्रायः धातुः अस्ति इति अहं
चिन्तयामि न न धा धातुः
धा दकार
महाप्राणधकारः
महाप्राणधकारः ण्यत् दकारः यत् भवति वा तर्हि यत्
यत् इति भिन्नप्रत्ययः ण्यत् इति भिन्नप्रत्ययः
अचो यत् इति एव अस्ति खलु धा इति यत् एव भवेत्
रु हलोर् ण्यत् इति सूत्रेण ऋकारान्तधातुभ्यः हलन्तधातुभ्यः ण्यत् प्रत्ययः भवति किन्तु अत्र धातुः आकारान्तधातुः धा इति आकारान्तधातुः अतः अचोयत् इति सूत्रेण धा धातोः परं यत् प्रत्ययः विहितः भवति सर्वे प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते विशेषतया यत् प्रत्ययस्य प्रसङ्गे केवलम् अजन्तधातुभ्यः एव यत् प्रत्ययः विहितः भवति अवयोगः धायोगः यत् इति स्थितिः अस्ति किन्तु धे किमर्थं भवति
तत्र प्रायः ईकारः कुत्रापि आगच्छति तत्पश्चात् गुणभूत्वा धे भवति वा
आं महोदय एकं विशिष्टं सूत्रं तस्मिन् प्रसङ्गे स्मर्तव्यम् ईद्यति इति सूत्रमस्ति ईद्यति इति सूत्रेण ईकारादेशः भवति तत्र इति कृत्वा अवधेयम् इति रूपं भवति वस्तुतः धातुः तु धा धातुः धा धातोः परं यत् प्रत्ययस्य योजनेन धेयम् इति रूपं सिद्ध्यति अव उपसर्गपूर्वक धा धातुतः यत् प्रत्ययस्य योजनेन अवधेयं तस्यां दशायाम् ईद्यति इति सूत्रेण ईकारादेशः भवति धा धातुः अजन्तधातुः अतः अचोयत् इति सूत्रेण यत् प्रत्ययः एव विहितः भवति धा धातुः जुहोत्यादिगणे अस्ति दधाति इति लटीरूपम् अस्ति अवधानम् इति भिन्नं सुन्दरमहोदय वदतु अवधानम्
अवधानम् इत्युक्ते अवधानेन भवतु
व्याकरणांशाः
अव इति उपसर्गपूर्वक धा धातोः ल्युडन्त प्रत्ययं योजनेन अवधानम् इति पदं सिद्ध्यति
अवधानं भिन्नम् अवधेयम् इति भिन्नम् अस्ति रमेश महोदय आवरणे किञ्चित् लिखितमस्ति तत् पठतु
च इति अव्ययस्य प्रयोगः समुच्चयः इत्यर्थे भवति उदाहरणम् आम्रं सेवफलं च मातापिता बालाः च गच्छन्ति
समुच्चयः इति लिखितं तत् किम्
एकत्र भवनं समुच्चयः इति वा एकत्र गमनं समुच्चयः एकत्र उच्चारणं समुच्चयः इति
द्वयोः अथवा बहूनां समाहारः अथवा राशिः इति एव समुच्चयः अत्र द्वयोः अथवा बहूनां पदानां समाहारः अथवा राशिः अस्ति इति कारणतः तस्मिन् अवसरे च इति अव्ययस्य प्रयोगः भवति च इति अव्ययस्य प्रयोगः समुच्चयार्थे भवति समुच्चयः ची धातोः अच् प्रत्ययस्य योजनेन किं भवति
अच् प्रत्ययेन क्षय इति भवति
जी धातुतः अच् प्रत्ययस्य योजनेन
जय
जयः
जयः
ची धातुतः अच् प्रत्ययस्य योजनेन
क्षयः
उत्तमं क्षयः इति ची धातोः रूपम् अस्ति ची धातोः अर्थः चयनं चिनोति इति रूपम् अस्ति स्वादिगणे अस्ति ची धातुः चिनोति चिनुतः चिन्वन्ति एवं रूपाणि भवन्ति अत्र समुच्चयः उपसर्गः कः एतत् सर्वं वदतु
उपसर्गः सम् इति एकः उपसर्गः अस्ति उद् इति द्वितीयः उपसर्गः अस्ति तत्र उद् इति यत् उपसर्गः अस्ति तद् सन्धिभूत्वा उच्चयः इति भवति
संयोगः उत् योगः ची योगः अच् प्रत्ययः ची धातुतः अच् प्रत्ययस्य योजनेन चयः इति रूपं भवति तदर्थम् एकं सूत्रमस्ति एरच् एः अच् इति सूत्रं ची धातुतः चयः जी धातुतः जयः ईदृशानि रूपाणि सिद्ध्यन्ति
भगिनि एकः सन्देहः स्लैट्लि डिफ्रेण्ट् अत्र गै गै धातुतः ल्युडन्तप्रत्ययस्य योजनेन गानम् इति पदं कथं सिद्ध्यति इति लिटिल् बिट् कन्फ्यूस् गायनम् इति आय् इति आगच्छति किल गै धातुतः ल्युडन्तप्रत्ययस्य न अन गै योगे अन भवति
एकवारं गै धातुः कीदृशधातुः ल्युट् प्रत्ययः कीदृशप्रत्ययः आदौ वदतु ल्युट् प्रत्ययः कीदृशः
ल्युट् ल्युट् प्रत्ययः कृदति कृत् प्रत्ययः अस्ति
कृत् प्रत्ययः अस्ति अपि च आर्धधातुकप्रत्ययः इत्युक्ते आर्धधातुककृदन्तरूपं भवान् साधयितुमिच्छति इत्युक्ते एषा प्रक्रिया आर्धधातुकप्रक्रिया आर्धधातुकप्रक्रियायां तत्र धातवः चतुर्दशवर्गेषु विभक्ताः सन्ति अत्र गै धातुः कस्मिन् वर्गे आयाति
एजन्तधातुः अस्ति
एजन्तधातुः अस्ति इति कारणतः आदे च उपदेशेषिति इति सूत्रेण उपदेशावस्थायाम् एजन्तधातवः आकारान्ताः भवन्ति तस्मात् परम्
एजन्तधातः आकारान्तः भवति ओके सो गै धातुः गाय् न भवति वा गा एव भवति वा
गा एव भवति
कस्मिन् सूत्रं किम्
आदेश उपदेशेषिति
ओके आदेश उपदेशेषिति इति सूत्रेण एजन्तधातवः आकारान्तः एव भवन्ति किल
आदेश उपदेशेषिति इति सूत्रम् आर्धधातुकप्रक्रियायाम् आयाति उपदेशे एजन्तधातवः आकारान्ताः भवन्ति अशित् प्रत्यये परे
ओहो ओके अशित् प्रत्यये परे
एकवारं सूत्रं पश्यतु आदेश उपदेशे शिति इति कथनेन तत्र पूर्वरूपसन्धिकार्यं भूत्वा अवग्रहचिह्नं तत्र स्थापितमस्ति अशित् प्रत्यये परे इति स्मर्तव्यम्
अशित् प्रत्यये परे
एजन्तधातवः आकारान्ताः भवन्ति षित् प्रत्ययः कुत्र आयाति सार्वधातुकप्रक्रियायां षित् प्रत्ययः आयाति खलु
अत्र आर्धधातुकप्रक्रिया अस्ति
ये प्रत्ययाः सार्वधातुकाः न सन्ति ते अषित् प्रत्ययाः तिंशित् सार्वधातुकम् इत्यनेन षित् प्रत्ययः सार्वधातुकः अषित् प्रत्ययः आर्धधातुकः आर्धधातुकप्रत्यये परे तत्सूत्रं कार्यं करोति गै धातोः रूपं गानम् अस्ति ध्यै धातोः रूपं
ध्यानम् इति अस्ति
रमेश महोदय भवान् वदतु सेवफलम् इत्युक्ते
आपल् इति आङ्ग्लेन वदामः
आम्रं मेङ्गो स्वादुफलम् इति अर्थः अपि अस्ति वा
न जानामि सेवयोग्यफलम् इति सेवफलं वा
भवितुं शक्यते सेवफलम् इति कथनेन आपल् चा इति अव्ययस्यप्रसङ्गे वयं किञ्चित् चिन्तनं कृतवन्तः कालातीतः अभवत् सर्वेषां धन्यवादाः
धन्यवादः भगिनि
धन्यवादः